नमस्कारः। अद्य वैयाकरणभूषणसारस्य धात्वर्थप्रकरणे षष्ठः पाठः, जनवरी मासस्य पञ्चविंशः दिनाङ्कः। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। श्रीलक्ष्मीरमणं नौमि गौरीरमणरूपिणम्, स्फोटरूपं यतः सर्वं जगदेतद्विवर्तते। भूषणसारे धात्वर्थप्रकरणस्य परिचयरूपेण धात्वर्थविषये व्याकरणमीमांसा न्यायदर्शनानां सिद्धान्तः संक्षेपेण अस्माभिः अधीतः। तत्र वैयाकरणानां मते फलं व्यापारश्च धात्वर्थः, कर्तृकर्मसङ्ख्याकालाः तिङर्थाः अथवा आख्यातस्य अर्थः, व्यापारमुख्यविशेष्यकः शाब्दबोधः अर्थात् शाब्दबोधे व्यापारः प्रधानः, फलं व्यापारे विशेषणं, कालः अपि व्यापारे विशेषणं, संख्या कर्तरि विशेषणम्, तिङर्थसंख्या तिङर्थे कर्तरि विशेषणं, कर्ता पुनः व्यापारे विशेषणम् इत्येतादृशी स्थितिः व्यापारमुख्यविशेष्यकः शाब्दबोधः इत्युच्यते। यथा चैत्रः पचति इति वाक्यं, तत्र पचति इत्यत्र पच् धातुना विक्लित्तिरूपं फलं, तदनुकूलः व्यापारश्च उच्यते। कर्ता चैत्रः पचति इति कर्तरिप्रयोगे कर्ता, तस्य एकत्वसङ्ख्या, व्यापारस्य च वर्तमानकालः तिङ् प्रत्ययेन उच्यते। तथा सति विक्लित्तिः व्यापारे अन्वेति, विक्लित्त्यनुकूलः व्यापारः, कालोऽपि व्यापारे अन्वेति, वर्तमानकालिकः व्यापारः, कर्ता व्यापारे अन्वेति, चैत्राश्रयः व्यापारः, संख्या तु कर्तरि अन्वेति, एकत्वसङ्ख्यावच्छिन्नः चैत्रः। एवञ्च विक्लित्त्यनुकूलः वर्तमानकालिकः एकत्वसङ्ख्यावच्छिन्नचैत्राश्रयः व्यापारः इति शाब्दबोधः। मीमांसामते तु फलमात्रं धात्वर्थः, भावना संख्या कालश्च आख्यातार्थः। अर्थात् फलं धातुना उच्यते, भावना अर्थात् व्यापारः, व्यापारस्यैव भावना इति अपरं नाम, भावना तिङ् प्रत्ययेन उच्यते, संख्या कालौ अपि आख्यातेनैव उच्यते। कर्ता तु साक्षात् नोच्यते, आक्षेपात् लक्षणया वा लभ्यते। भावना अस्ति इत्यतः कर्तारं विना भावना न सम्भवति इत्यतः आक्षेपात् कर्ता अस्ति इति आक्षिप्यते, अथवा शक्यसम्बन्धो लक्षण इति भावनासम्बद्धः कर्ता लक्षणया लभ्यते इति स्थितिः। तत्रापि भावनामुख्यविशेषकः शब्दबोधः एव अङ्गीक्रियते, परस्परान्वयः समानः। फलं भावनायां, कालः भावनायां, कर्ता अपि भावनायां, संख्या तु कर्तरि, एवञ्च भावनामुख्यविशेषकः शाब्दबोधः। तत्र भावनायाः प्राधान्यं, सा च कीदृशी भावना, विक्लित्त्यनुकूला अथवा विक्लित्तिजनिका भावना, वर्तमानकालिकी भावना, चैत्राश्रया भावना, संख्या कर्तरि अन्वेति इत्यतः एकत्वसङ्ख्यावच्छिन्न चैत्राश्रयिका, एवञ्च विक्लित्त्यनुकूला वर्तमानकालिकी एकत्वसङ्ख्यावच्छिन्न चैत्राश्रयिका भावना इति शाब्दबोधः चैत्रः पचति इति वाक्यात् भवति मीमांसकानां मते। नैयायिकानां मते तु फलं व्यापारश्च धात्वर्थः इत्यत्र अङ्गीकारः दृश्यते नव्यनैयायिकानां। प्राचीननैयायिकानां मते तु व्यापारमात्रं धात्वर्थः, आख्यातार्थः कृतिः संख्याकालश्च इति नैयायिकमतम्। तत्र व्यापारस्य कृतेश्च भेदः दृश्यते। चेतनानिष्ठः अथवा आत्मनिष्ठा कृतिः, शरीरनिष्ठस्तु व्यापारः इति भेदः। सर्वत्र यत्र व्यापारः अर्थात् शरीरे हुत्कारादि व्यापारः दृश्यते तत्र आत्मनि कृतिरूपः यत्नोपि दृश्यते इति तेषां मतम्। कर्ता तु प्रथमान्तपदाल्लभ्यते, फलं व्यापारे अन्वेति, कालः वस्तुतः कृतौ अन्वेति, कालः व्यापारः कालश्च कृतौ अन्वेति, संख्या कर्तरि अन्वेति, व्यापारः कृतौ अन्वेति, कृतिश्च कर्तरि अन्वेति इति स्थितिः। अतः प्रथमान्तार्थमुख्यविशेषकः शाब्दबोधः नैयायिकसम्मतः। प्रथमान्तार्थः कर्ता, अतः चैत्रः इत्यस्य प्राधान्यम्। कीदृशः चैत्रः? कृतिः एव कर्तरि अन्वेति, कृतिः संख्या च कर्तरि अन्वेति। अतः एकत्वसंख्यावच्छिन्नः चैत्रः, कृतिमान् चैत्रः। कीदृशी कृतिः? व्यापारानुकूला कृतिः, वर्तमानकालिकी कृतिः। फलं व्यापारे, अतः विक्लित्यनुकूल व्यापारानुकूल कृतिमान्। विक्लित्यनुकूल व्यापारानुकूल वर्तमानकालिक कृतिमान् एकत्वसंख्यावच्छिन्नः चैत्रः इति चैत्रः पचति इति वाक्यस्य शब्दबोधः नैयायिकमते। इत्येतत् त्रयमपि अस्माभिः दृष्टम्। तत्र कश्चन अभ्यासः दत्तः, कश्चिद् वक्तुमिच्छति? अहं पचामि इति वाक्यस्य कीदृशः शाब्दबोधः मतत्रये? उच्चैः एकत्वसंख्यावच्छिन्न मदाश्रयः, विक्लित्यनुकूलः, वर्तमानकालिकः, व्यापारः इति कस्मिन् मते? इति व्याकरणमते शाब्दबोधः। मीमांसकमते? भावना। मीमांसकमते एकत्वसंख्यावच्छिन्नमदाश्रयिका, वर्तमानकालिकी, विक्लित्यनुकूला अथवा विक्लित्यजनिका भावना इति शाब्दबोधः। नैयायिकमते? एकं क्षणं रतं वरा, मृदुला वदति, अनन्तरं भवती वदतु। हा, उच्चैः। व्यापारानुकूल फलस्य कुत्र अन्वयः? विक्लित्यनुकूल व्यापारानुकूल वर्तमानकालिक कृतिमान् एकत्वसंख्यावच्छिन्नः अहम् इति नैयायिकमते शाब्दबोधः। द्वितीयं वाक्यमस्ति, बालः अगच्छत्। ऋतंभर।
एकत्वसंख्यावच्छिन्न बालाश्रयः भूकालिकः उत्तरदेशसंयोगानुकूलः व्यापारः।
एकत्वसंख्यावच्छिन्न बालाश्रयः भूतकालिकः उत्तरदेशसंयोगानुकूलः व्यापारः इति वैयाकरणमते शाब्दबोधः। मीमांसकमते
एकत्वसंख्यावच्छिन्न बालाश्रयिका भूतकालिक उत्तरदेशसंयोगानुकूला भावना।
भावना प्रधाना। अतः एकत्वसंख्यावच्छिन्न बालाश्रयिका भूतकालिकी उत्तरदेशसंयोगानुकूला भावना इति मीमांसकमते।
उत्तरदेशसंयोगानुकूल व्यापारानुकूल वर्तमानकालिकः भूतकालिकः
भूतकालिक
भूतकालिक कृतिमान् कृतिमान् एकत्वसंख्यावच्छिन्न
छिन्नः
बालः
बालः उत्तरदेशसंयोगानुकूलव्यापारानुकूलभूतकालिककृतिमान् एकत्वसङ्ख्यावच्छिन्नः बालः इति नैयायिकमते अस्य वाक्यस्य शाब्दबोधः. बालः एव प्रधानं तत्र, आश्रयः नास्ति, बालस्यैव प्राधान्यं. प्रथमान्तार्थमुख्यविशेषकशाब्दबोधः, अतः बालः इत्येव, न तु बालाश्रयः. अग्रे अन्ये केऽपि वक्तुमिच्छन्ति? तृतीयं वाक्यमस्ति ते खादिष्यन्ति. भानुप्रकाश महोदय, न श्रूयते, मैक् कार्यं न करोति. अस्तु, सः तु पूर्वमेव सर्वं लिखित्वा प्रेषितवान्, अतः सः जानाति इति विश्वासः. अस्तु, अन्ये केऽपि वक्तुमिच्छन्ति? नो चेत् अत्र पश्यामः, तेन लिखितं ते खादिष्यन्ति इत्यत्र व्यापारः, खाद् धातोः फलं गलबिलाधसंयोगः, अतः गलबिलाधसंयोगानुकूलः व्यापारः, भविष्यत्कालिकः, तदाश्रयः, तच्छब्दः अत्र कर्ता, अतः तदाश्रयः, तच्च बहुत्वसङ्ख्यावच्छिन्नम्, अतः बहुत्वसङ्ख्यावच्छिन्नतदाश्रयः, भविष्यत्कालिकः, गलबिलाधसंयोगानुकूलः व्यापारः इति वैयाकरणमते. समानं, बहुत्वसङ्ख्यावच्छिन्नतदाश्रयिका, गलबिलाधसंयोगानुकूला, भविष्यत्कालिकी भावना इति मीमांसकमते. नैयायिकमते तु गलबिलाधसंयोगानुकूलव्यापारानुकूलभविष्यत्कालिककृतिमन्तः बहुत्वसङ्ख्यावच्छिन्नाः ते इति प्रथमान्तार्थमुख्यविशेषकः शाब्दबोधः नैयायिकमते दृश्यते. इत्थमेव फलानि पतन्ति. बहुत्वसङ्ख्यावच्छिन्नफलाश्रयः वर्तमानकालिकः अधोदेशसंयोगानुकूलः व्यापारः, पतधातोः फलम् अधोदेशसंयोगः तदनुकूलः व्यापारः. बहुत्वसङ्ख्यावच्छिन्नफलाश्रयिका, अधोदेशसंयोगानुकूला, वर्तमानकालिकी भावना इति मीमांसकमते. अधोदेशसंयोगानुकूलव्यापारानुकूलवर्तमानकालिककृतिमन्ति. कृतिमान् इति पुंसि, कृतिमत् इति नपुंसके, कृतिमत् कृतिमती कृतिमन्ति इति बहुवचने. कृतिमन्ति बहुत्वसङ्ख्यावच्छिन्नानि फलानि इति नैयायिकमते शाब्दबोधः. अभ्यासेन सिद्ध्यति, अतः शाब्दबोधात् न भेतव्यम्. ततः धात्वर्थप्रकरणस्य अध्ययनम् आरब्धम्. तत्र प्रथमा कारिका अस्ति फलव्यापारयोर्धातुः आश्रयेतु तिङस्मृताः, फले प्रधानं व्यापारः, तिङर्थस्तु विशेषणम्. फलव्यापारयोः धातुः आश्रयेतु तिङः स्मृताः, फले प्रधानं व्यापारः, तिङर्थः तु विशेषणम् इति चत्वारः अंशाः कारिकायां विद्यन्ते. तत्र धातुरिति अत्र स्मृतः इति वचनविपरिणामेन अन्वयः. कारिकायां स्मृताः इत्यस्ति, तिङः आश्रये स्मृताः, धातुः फलव्यापारयोः स्मृतः. स्मृताः इति बहुवचने श्रुतस्य शब्दस्य, धातुः इति एकवचनान्तेन अन्वये, स्मृतः इति एकवचनान्तत्वेनैव अन्वयः सम्भवति. अतः धातुः फलव्यापारयोः स्मृतः, आश्रयेत तिङस्मृताः इति वाक्यम्. स्मृताः इत्यत्र कथं स्मृतः वाचकत्वेन स्मृतः अतः धातुः फलस्य व्यापारस्य च वाचकः तिङ् प्रत्ययास्तु आश्रयः कयोराश्रयः फलव्यापारयोराश्रयः फलस्य आश्रयः कर्म व्यापाराश्रयः कर्ता सङ्ख्याकालश्च अस्त्येव तत्र तिङां तिङः वाचकाः इति तत्र इदानीं पुनः फले प्रधानं व्यापारः फलव्यापारयोर्मध्येऽपि व्यापारस्य प्राधान्यं तिङर्थास्तु सर्वदा विशेषणीभूताः इति कारिकायाः स्थूलः अर्थः तत्र प्रतिपदं व्याचष्टे कौण्डभट्टः फलं नाम किम् लोके यद् यस्य सिद्धिम् उद्दिश्य प्रवृत्तिः भवति तत् फलशब्देन उच्यते यथा यज्ञस्य फलं स्वर्गः पाकस्य फलं भोजनम् इत्यादि किन्तु तादृशं फलं धातुना न उच्यते अतः तादृशं फलम् अत्र न विवक्षितम् विक्लित्यादि तद्धात्वर्थ वाच्यत्वम् अपेक्ष्यते अतः तद्धात्वर्थत्वं फलत्वं फलत्वस्य पारिभाषिकं फलं भवति तद्धात्वर्थविशेषणत्वे सति तद्धात्वर्थत्वं यत् तद्धात्वर्थः भवति अर्थात् धातुना उच्यते किञ्च तेन धातुना उक्तस्य अन्यस्य कस्यचिदर्थस्य विशेषणं भवति यथा पच् इति धातुना विक्लित्तिः विक्लित्यनुकूलव्यापारश्च उच्यते तत्र विक्लित्तिः फलं कथं तद्धात्वर्थत्वम् अस्ति पचधात्वर्थत्वम् अस्ति अपि च पचधात्वर्थभूत भूतः यः व्यापारः तद्विशेषणत्वमपि फले अस्ति अतः तद्धात्वर्थविशेषणत्वे सति तद्धात्वर्थत्वं फलत्वं तत्रैव तद्धात्वर्थजन्यत्वे सति अथवा प्रयोज्यत्वे सति इत्यपि लक्षणम् उच्यते सर्वत्र अर्थस्तु समानः फलं व्यापारजन्यं व्यापारप्रयोज्यम् इत्यादि अतः तादृशं फलमेव अत्र विवक्षितं तत् विक्लित्यादि कश्च व्यापारः इत्यग्रे उच्यते व्यापारस्तु भावनाभिधा साध्यत्वेन अभिधीयमाना क्रिया व्यापारः तस्यैव अपरं नाम भावना इति तच्च किं क्रिया अतः व्यापारः भावना क्रिया इत्येतानि सर्वाणि समानार्थकपदानि तच्च साध्यत्वेन अभिधीयमाना क्रिया यत्र क्रिया साध्यत्वेन रूपेण उच्यते स एव व्यापारः धात्वर्थव्यापारः अत्र साध्यत्वं नाम किं क्रिया नाम का इत्यादिविषये पुनः अग्रे चर्चा प्रवर्तते वाक्यपरीये उक्तं यावत् सिद्धम् असिद्धं वा साध्यत्वेनाभिधीयते आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते इति वाक्यपदीये क्रिया नाम का सिद्धम् असिद्धं वा अत्र फलम् अर्थात् क्रियायाः यत् फलं तत् पूर्वमेव निर्वृत्तम् अथवा अनिर्वृत्तम् यथा अपाक्षीत् इत्युक्ते विक्लित्तिः सिद्धा विक्लित्तिः पूर्वमेव अभूत् अत एव भूतकालस्य प्रयोगः यत्र तु पचति इति पाकक्रिया अनुवर्तते अथवा पक्ष्यति भविष्यत्काले पाकक्रिया भविष्यति तत्र तु फलम् असिद्धम् एवं यावत् सिद्धम् असिद्धं वा साध्यत्वेन साध्यत्वं नाम किम् इति पुनः अग्रे उच्यते आश्रितक्रमरूपत्वात् यत्र क्रमिकोत्पत्तिः विवक्ष्यते अर्थात् द्रव्यं तु सर्वदा सिद्धं भवति क्रिया तु साध्या सो दट् विच् इस् जनरेटेड् बै अ टैम् बौण्ड् यु नो इन् ए टैम् बौण्ड् मेनर् वेर् द काम्पोनेण्ट्स् आर् जनरेटेड् ग्राज्युलि आश्रितक्रमरूपत्वात् क्रमशः यत्र अवयवानाम् उत्पत्तिः भवति सा एव क्रिया इति वाक्यपदीयस्य मतम् अस्माभिः दृष्टम् तत्र इदानीम् अग्रे पश्यामः साध्यक्रिया सिद्धक्रिया इत्येतयोः भेदः अवगन्तव्यः क्रिया द्विविधा भवति साध्यक्रिया सिद्धक्रिया इति तत्र साध्यं सिद्धम् इत्यनेन किं विवक्षितम् क्रियान्तर अनपेक्षा साध्या क्रियान्तरं न अपेक्षते दट् विच् डस् नाट् रिक्वैर् अनदर् क्रिया फार् कम्प्लीशन् आफ् मीनिङ्ग् यथा पचति पचति इत्युक्ते सा एव क्रिया, तत्र अन्य क्रियायाः अपेक्षा नास्ति. क्रियान्तर अनपेक्षा, दट् विच् डस् नाट् रिक्वैर् अनदर् क्रिया फार् कम्प्लीशन् आफ् इट्स् मीनिङ्ग् इस् काल्ड् साध्यक्रिया. तिङन्तैः साध्यक्रिया उच्यते. यत्र तिङन्तस्य प्रयोगः भवति तत्र साध्यक्रिया. अत एव तिङन्तेन वाक्यं समाप्तिमेति. तिङन्ते उक्ते क्रियाविषयिणी आकाङ्क्षा न भवति. यथा कोऽपि पचति इति यदि प्रयोगं करोति तर्हि आकाङ्क्षा भवति. कस्य आकाङ्क्षा भवति? कः पचति, किं पचति इत्यादि द्रव्यान्तरस्य आकाङ्क्षा एव भवति. यदा क्रिया पचति इति क्रिया उच्यते तत्र द्रव्यस्य आकाङ्क्षा विद्यते. कः पचति अर्थात् कर्ता कः, किं पचति कर्म किं, कथं केन पचति, कुत्र पचति इत्यादि सर्वापि आकाङ्क्षा द्रव्याकाङ्क्षा. सो द क्रिया रिक्वैर्स् कारकास् आर् द्रव्यास् फार् कम्प्लीशन् आफ् मीनिङ्ग्, किन्तु क्रियान्तराकाङ्क्षा नास्ति. अन्या क्रिया नापेक्ष्यते अर्थस्य पूर्त्यै, किन्तु क्रियान्तरसापेक्षा सिद्धा. कदाचित् क्रिया यथा पाकः, पाकः इत्युक्ते कः अर्थः? पाकक्रिया इत्येव अर्थः. पाकः इति कृदन्तेनापि क्रिया एव उच्यते. पचति इत्यत्र या क्रिया, सा एव क्रिया पाकः इत्यत्रापि उच्यते. पाकः इति भावार्थे घञ् प्रत्ययः, यथा रामः इत्यत्र रमधातोः घञ् प्रत्यये रामः, तथा पचधातोः घञ् भावार्थके घञ् प्रत्यये पाकः. पाकशब्देनापि क्रिया एव उच्यते, किन्तु एषा क्रिया क्रियान्तरसापेक्षा. केवलं पाकः इत्युक्ते अर्थसमाप्तिः नास्ति. तदा किं भवति? पाकः किं, पाकः भवति, पाकः अभवत्, पाकः भविष्यति इति क्रियान्तरस्य आकाङ्क्षा उत्पद्यते. ईदृशी क्रिया सिद्धक्रिया. सो क्रिया इस् आफ् टु कैण्ड्स्. वन् इस् काल्ड् अ साध्यक्रिया. Sadhyakriya is a kriya which is complete by itself, which does not require a different action for completion of meaning. So wherever there is sadhyakriya, the akanksha is regarding the dravyas which help to generate the kriya. However, when we talk of siddhakriya, there is again akanksha, but the akanksha is not regarding dravyas, but it is regarding a kriya. So when we say pakaha, we don't ask कः पाकः, ऐ मीन् पाकः इस् पाकः. देर् इस् नो इमीडियट् आकाङ्क्षा आफ् कर्ता. द इमीडियट् आकाङ्क्षा इस् आफ् अ क्रिया. सो वेन् यु से पाकः, सो डिड् इट् हेपन्, विल् इट् हेपन्, और् इस् इट् हेपनिङ्ग्? सो द आकाङ्क्षा इस् आल्वेस् फार् अ डिफरेण्ट् क्रिया. अतः क्रियान्तर अनपेक्षा साध्यक्रिया, क्रियान्तरसापेक्षा सिद्धक्रिया. यत्र तिङन्तस्य प्रयोगः भवति तत्र साध्यक्रिया उच्यते. अत एव धातुना व्यापारस्तु साध्यत्वेन अभिधीयमाना क्रिया इति उच्यते. कृदन्तैस्तु सिद्धक्रिया उच्यते, यतः कृदविहितो भावो द्रव्यवत् प्रकाशते इति भाष्यम्. धातुना साध्यक्रिया एव उच्यते सर्वत्र. फलव्यापारयोर्धातुः इत्यत्र कीदृशी क्रिया अथवा कीदृशः व्यापारः? साध्यरूपः व्यापारः अथवा साध्यक्रिया एव धातुना उच्यते. तस्यैव व्यापारः इत्यपि नाम. तिङन्ते व्यापारस्यैव प्राधान्यम्. अत एव साध्यक्रियायाः भानम् इति वदामः. कृदन्ते किं भवति? कृदन्ते तु कर्तुः अथवा कर्मणः प्राधान्यम्, व्यापारस्य गौणत्वम्. यू शुड् आल्वेस् रिमेम्बर् वेन् वी आर् टाकिङ्ग् अबौट् tingantas and kridantas, there is dhatu in both cases. So there is vyapara even in case of kridantas. However, in tingantas, vyapara is pradhana. In kridanta, vyapara is not pradhana. Dravyam pradhanam. Kridantesha sarvada dravyam pradhanam vyaparaha gaunaha. Atayeva siddhakriyayaha bhanam ityuchyate. Tingante tu vyaparasya pradhanyam bhavati. Atayeva sadhyakriya इत्युच्यते. तत्र भाष्यकारः वदति अस्माभिः पचति इत्यपि उच्यते, पाकः इत्यपि उच्यते, कः भेदः? अस्ति खल्वपि विशेषः तिङभिहितस्य भावस्य कृदभिहितस्य च. भावः इत्युक्ते पुनः व्यापारः इत्येव अर्थः. तिङभिः तस्य भावस्य, तिङन्तेषु यः व्यापारः तस्य, कृदभिः तस्य भावस्य, कृदन्तेषु यः व्यापारः तस्य च अस्ति विशेषः. को विशेषः? कृदभिहितो भावो द्रव्यवद् भवति. सो वेन् एन् एक्शन् इस् एक्स्प्रेस्ड् थ्रू अ कृदन्त, इट् बिहेव्स् लैक् अ द्रव्य, नाट् लैक् अ क्रिया. द्रव्यवद् भवति, अत एव लिङ्गान्वयः भवति. पाकः यद्यपि यदा पचति इत्यस्ति तत्र व्यापारस्य लिङ्गं नास्ति. पचति इति, सः पचति, सा पचति, तत् पचति, सर्वत्रापि लिङ्गभेदः नास्ति. किन्तु पाकः इत्यत्र पुल्लिङ्गे एव प्रयोगः. पक्ववान्, पक्ववती, पक्ववत्, यत्र यत्र कृदन्तस्य प्रयोगः तत्र लिङ्गान्वयः भवति. लिङ्गान्वयः सर्वदा द्रव्ये एव, न तु व्यापारे अथवा क्रियायाम्. अत एव कृदभिहितो भावो द्रव्यवद् भवति, द्रव्यं क्रियाभिनिर्वृत्तौ साधनत्वम् उपैति. एण्ड् अ द्रव्य, इवन् दो इट् इस् क्रिया बै इट् सेल्फ्, इट् बिहेव्स् लैक् अ कारक टु अदर् क्रियास्. अत एव क्रियान्तर आकाङ्क्षा भवति कृदन्तेषु, सा च क्रिया सिद्धक्रिया इत्युच्यते. एवञ्च क्रियायां द्वैविध्यं, साध्यक्रिया सिद्धक्रिया. यत्र क्रियान्तर अपेक्षा भवति सा सिद्धक्रिया, यत्र क्रियान्तरस्य अपेक्षा नास्ति सा साध्यक्रिया. तिङन्तैः सर्वदा साध्यक्रिया उच्यते, कृदन्तैः सिद्धक्रिया उच्यते इति भेदः. अन्तिमं वाक्यं पुनः वदतु इति कश्चित् पृच्छति. द्रव्यं क्रियाभिनिर्वृत्तौ साधनत्वम् उपैति. यदा कृदभिहितः भावः द्रव्यवद् भवति, द एक्शन् वेन् एक्स्प्रेस्ड् बै कृदन्त, इट् बिहेव्स् लैक् द्रव्य. सो एस् सून् एस् इट् बिहेव्स् लैक् अ द्रव्य, इट् इस् नो लाङ्गर् अ प्योर् क्रिया, इट् बिकम्स् अ कारक. अत एव पाकः भवति इत्यत्र पाकः कर्ता, साधनत्वम् उपैति. इवन् दो पाक इस् actually action, it still behaves like a karta for the different action, bhavati. It does become a noun. Yes, that is what it says. But I mean, a noun is a grammatical category. Dravya is actually a padartha. Okay? There is a difference between dravya and namapada. Dravya is a padartha. Noun or namapada is a pada. So, namapadas are those which express dravyas. So, it does become a namapada, and therefore, there is, because it is a dravya, okay, so that which indicates a dravya or nama padartha is called a nama pada. So it behaves like a noun, and that is why you have the application of linganvayah bhavati, vachananvayah bhavati, dravyasya. Kincha kriyanvayah. So you should always remember a dravya is characterized by these three things. Dravyam ityukte sarvada lingaanvayah bhavati, sankhyaanvayah bhavati, kriyaanvayah bhavati. Kriyayam na bhavati. Kriyayam lingaanvayah nasti. Kriya is independent of linga. Sankhyaanvayah na bhavati. Kriyatu eka eva. The ling difference of sankhya which we see in pachati, pachanti is not the sankhya of the kriya. It is the sankhya of the karta. अत एव क्रियायां लिङ्गान्वयः नास्ति, वचनान्वयः नास्ति, क्रियान्वयः अपि नास्ति. सो इट् डस् नाट् रिलेट् टु अदर् क्रियास्. हवेवर् अ द्रव्य हेज् आल् दीस् त्री. इट् हेज् लिङ्गान्वय, इट् हेज् वचनान्वय, एण्ड् इट् आल्सो हेज् क्रियान्वय. दट् इस् वै वेन् वी से पाकः, इट् इस् अ द्रव्य. देर् फोर् देर् इस् पुल्लिङ्ग, देर् इस् एकवचन. यु केन् से पाकः, यु केन् से पाकाः, but you cannot express multiplicity of kriya using a tinganta, because there the kriya is always one. There is no vachananvaya. Okay. Atah dravyam kriyabhinirvrittau sadhanatvam upaiti. Ayam eva visheshah. So that is the difference between action as expressed, that is siddha kriya and sadhya kriya. The action as expressed by akridanta is siddha kriya, and that which is expressed by tinganta is sadhya kriya. Atra kashchit prashnah, dravyam ityasya angla bhashayam kim iti. It is any material or substance as opposed to action. Yes. any substance is called dravya. So substance and action are two opposite things. इदानीं पुनः पश्यामः. किमुक्तं मूले व्यापारस्तु भावनाभिधा साध्यत्वेन अभिधेयमाना क्रिया न च साध्यत्वेन अभिधाने मानाभावः. धातुना क्रिया साध्यत्वेन रूपेण उच्यते इत्यत्र किं प्रमाणम् इति प्रश्नः. व्यापारः साध्यत्वेन अभिधीयमाना क्रिया इत्युच्यते, तत्र किं प्रमाणम्? धातोक्तः व्यापारः साध्यरूपः इत्यत्र किं प्रमाणम् इति प्रश्नः. आल्वेज् यु शुड् रिमेम्बर् द न च इस् द स्टैल् आफ् शास्त्रग्रन्थस्. यत्र यत्र न च इति आरम्भः भवति तत्र नकारः अन्ते अन्वेति. साध्यत्वेन अभिधाने मानाभावः इति न इत्यर्थः. So this nacha here is a short sentence. Sometimes it can run for a whole paragraph. Okay, so there is nacha always indicates the beginning of what we call a purvapaksha, an objection which is not the siddhanta. So always when he says nacha, not just here, any shastra text you take, whether in Vyakarana or Mimamsa, Nyaya, Vedanta, everywhere, nacha indicates the beginning of a purvapaksha. Purvapakshasya arambhaha. न च इत्यनेन उच्यते. ततोऽग्रे यदुच्यते सः पूर्वपक्षः इत्यर्थः. पूर्वपक्ष इस् एन् आर्ग्युमेण्ट् विच् इस् टु बि कान्ट्रडिक्टेड्. सो द पूर्वपक्षः सिद्धान्तः इति परस्परविरुद्धं. सिद्धान्त इस् द फैनल् कन्क्लूजन् अकार्डिङ्ग् टु द टेक्स्ट्, वेरस् पूर्वपक्ष इस् एन् अब्जेक्षन् विच् विल् बि आन्सर्ड्. सो वाट् इस् द पूर्वपक्ष हियर्? साध्यत्वेन अभिधाने मानाभावः. वाट् इस् द प्रमाण टु से दट् धातुवाच्यः व्यापारः साध्यत्वेन अभिधीयते इत्यत्र किं प्रमाणम्? प्रमाणं नास्ति. मानं नाम प्रमाणस्य अभावः इति पूर्वपक्षः. न, सो दट् ऑब्जेक्शन् विल् नाट् स्टाण्ड्. किमर्थम्? प्रमाणं किम् इति दर्शयति. व्यापारः धातुना व्यापारः साध्यत्वेन रूपेण उच्यते इत्युक्तं. व्यापारस्तु भावनाभिधा साध्यत्वेन अभिधीयमाना क्रिया. साध्यत्वेन उच्यते इत्यत्र किं प्रमाणम्? धातुक्तः व्यापारः साध्यरूपः इत्यत्र किं प्रमाणम् इति प्रश्नः. अतः प्रयोगद्वैविध्यमेव प्रमाणम्. द्विविधाः प्रयोगाः दृश्यन्ते. कथं? पचति पाकः, करोति कृतिः इत्यादौ धात्वर्थ अवगम अविशेषे अपि क्रियान्तराकाङ्क्षा अनाकाङ्क्षयोः दर्शनस्यैव मानत्वात् इति उत्तरम्. कः अर्थः? पचति इति प्रयोगः अस्ति, पाकः इत्यपि प्रयोगः अस्ति. पूर्वं यद्दृष्टं तदेव इदानीम् उच्यते. पाकः इति भावार्थे घञ्प्रत्ययः पच् धातोः. एवं करोति इति प्रयोगः अस्ति, कृतिः. करोति इत्येव अर्थः कृतिः इत्यत्र अपि, यतोहि भावार्थे क्तिन् इति प्रत्ययः. इदानीम् अनयोः उभयत्र वस्तुतः धातुः समानः. पचति इत्यत्रापि स एव पच् धातुः, पाकः इत्यत्रापि स एव पच् धातुः. करोति इत्यत्र यः कृधातुः स एव कृतिः इत्यत्रापि अस्ति. प्रत्ययः अपि भावार्थकः एव. तर्हि उभयोः भेदः अस्ति वा न वा? अस्ति इति ज्ञायते, अनुभवसिद्धम्. पचति इत्यस्य पाकः इत्यस्यापि भेदः अस्ति. कः भेदः? धात्वर्थ अवगम अविशेषेऽपि. यद्यपि धात्वर्थस्य अवगमे, अवबोधने अविशेषः नाम तुल्यत्वम्. पचति इत्यत्र यः धातुः स एव पाकः इत्यत्रापि, करोति इत्यत्र यो धातुः स एव कृतिः इत्यत्रापि. अतः धात्वर्थस्य अवगमे अविशेषः. विशेषः नाम भेदः, अविशेषः नाम भेदः नास्ति तुल्यत्वे अपि. क्रियान्तर आकाङ्क्षा अनाकाङ्क्षयोः दर्शनम् अस्ति. क्रियान्तर आकाङ्क्षा कुत्र अस्ति? कृदन्तस्य प्रयोगे. पाकः इत्युक्ते भवति, भविष्यति इत्यादि क्रियान्तरस्य आकाङ्क्षा दृश्यते. क्रियान्तर अनाकाङ्क्षा तु तिङन्तप्रयोगे दृश्यते. एवं भेदः दृश्यते. यत्र धात्वर्थस्य प्राधान्यं तत्र क्रियान्तर अनाकाङ्क्षा, यत्र प्रत्ययार्थस्य अथवा द्रव्यस्य प्राधान्यं तत्र क्रियान्तर आकाङ्क्षा दृश्यते. अतः द्विविधः प्रयोगः दृश्यते इत्यनेनैव ज्ञायते भेदः अस्ति. किं? धातुना यः व्यापारः उच्यते तत्र क्रियान्तर अनाकाङ्क्षा अनुभवसिद्ध सा एव साध्यक्रिया न च साध्यत्वेन अभिधाने मानाभावः पचति पाकः करोति कृतिः इत्यादौ धात्वर्थ अवगम अविशेषेऽपि क्रियान्तराकाङ्क्षा अनाकाङ्क्षयोः दर्शनस्यैव मानत्वात् तदेव प्रमाणम् तथाञ्च क्रियान्तर आकाङ्क्षा अनुत्थापकता अवच्छेदकत्वं साध्यत्वम् साध्यत्वं नाम किम् इति चेत् क्रियान्तर आकाङ्क्षा अनुत्थापकता अवच्छेदकत्वम् इति पदम् क्रियान्तरम् नाम अन्या क्रिया क्रियान्तरम् तस्य आकाङ्क्षा क्रियान्तरस्य आकाङ्क्षा अनुत्थापकता सो दट् विच् डस् नाट् प्रोड्यूस् एन् आकाङ्क्षा फार् अ डिफरेण्ट् क्रिया फार् अनदर् क्रिया इस् क्रियान्तर आकाङ्क्षा अनुत्थापकता एका क्रिया क्रिया तु एका अस्ति तत्र एकदेशः नाम एकः भागः साध्यः अन्यश्च सिद्धः यस्मिन् एकदेशे क्रियायाः यस्मिन् भागे क्रियान्तराकाङ्क्षायाः अनुत्थापकता विद्यते सो देर् वेर् वी डु नाट् फील् द रिक्वैर्मेण्ट् आफ् अनदर् क्रिया फार् कम्प्लीशन् आकाङ्क्षा आल्वेस् मीन्स् फार् कम्प्लीशन् आफ् मीनिङ्ग् ओके तदेव अवच्छेदकम् सो दट् इस् काल्ड् साध्य साध्यरूप तद्रूपवत्त्वम् असत्त्वभूतत्वम् ಕ್ರಿಯೆ ಅನ್ನೋದು ಒಂದೇ ಪಚು ಎನ್ನುವ ಕ್ರಿಯೆ ಇದೆ ಪಚು ಇತಿ ಏಕಾಏವ ಕ್ರಿಯಾ ತಸ್ಯ ರೂಪದ್ವಯಂ ದೃಶ್ಯತೆ ಏಕಂ ಸಿದ್ಧರೂಪಂ ಅನ್ಯಚ್ಚ ಸಾಧ್ಯರೂಪಂ ಪಚು ಇತಿ ವಿಕ್ಲಿತ್ಯನುಕೂಲಃ ಯಃ ವ್ಯಾಪಾರಃ ತಸ್ಯ ದ್ವೇಧಾ ಭಾನಂ ಭವತಿ ಏಕಂ ಚ ಸಿದ್ಧ ತಿ ಇತಿ ನ ಪಚು ಇತಿ ಧಾತುನಾ ಏವ ವ್ಯಾಪಾರಃ ಉಚ್ಯತೆ ಇತಿ ವ್ಯಾಕರಣ ಸಮ್ಮತಃ ಅತಃ ಪಚ್ ಇತಿ ಧಾತುನಾ ಯಃ ವ್ಯಾಪಾರಃ ಉಚ್ಯತೆ ತಸ್ಯ ಸಿದ್ಧರೂಪಮಪಿ ಭವತಿ ಸಾಧ್ಯರೂಪಮಪಿ ಭವತಿ ಯಸ್ಮಿನ್ ರೂಪೇ ಕ್ರಿಯಾಂತರಾಕಾಂಕ್ಷಾ ನ ಉತ್ತಿಷ್ಠತಿ ತದ್ರೂಪಂ ಸಾಧ್ಯರೂಪಂ ಇತ್ಯುಚ್ಯತೆ ತತ್ ಸಾಧ್ಯರೂಪವದೇವ ಅಸತ್ವಭೂತಂ ಇತ್ಯುಚ್ಯತೆ ಚಾದಯೋ ಸತ್ವೇ ಅಸತ್ವಂ ನಾಮ ಅದ್ರವ್ಯಂ ಇತ್ಯರ್ಥಃ ಯತ್ರ ಸಾಧ್ಯರೂಪಂ ಅಸ್ತಿ ತದೇವ ಅಸತ್ವಂ ಇತ್ಯಪಿ ಉಚ್ಯತೆ ಸತ್ವಂ ನಾಮ ದ್ರವ್ಯಂ ತತ್ರ ಸರ್ವದಾ ಸಿದ್ಧಕ್ರಿಯಾ ಅಸತ್ವಂ ನಾಮ ಅದ್ರವ್ಯಂ ನಾಮ ಕ್ರಿಯಾ ಯದ್ ದ್ರವ್ಯಂ ನ ತತ್ತು ಕ್ರಿಯಾ ಇತ್ಯೇವ ತತ್ರ ಸಾಧ್ಯಕ್ರಿಯಾ ಭವತಿ ಇತಿ ಸಿದ್ಧಕ್ರಿಯಾ ಸಾಧ್ಯಕ್ರಿಯೆಯೋಃ ಭೇದಃ ಓಕೆ ಸರ್ವದಾ ಸ್ಮರ್ತವ್ಯಂ ಕ್ರಿಯಾ ದ್ವಿವಿಧ ಸಿದ್ಧಕ್ರಿಯಾ ಸಾಧ್ಯಕ್ರಿಯಾ ಯತ್ರ ಕ್ರಿಯಾಂತರಸ್ಯ ಆಕಾಂಕ್ಷಾ ನಾಸ್ತಿ ಸಾ ಸಾಧ್ಯಕ್ರಿಯಾ ತಿಂಗಂತೈಃ ಸರ್ವದಾ ಸಾಧ್ಯಕ್ರಿಯಾ ಉಚ್ಯತೆ ಯತ್ರ ಕ್ರಿಯಾಂತರಸ್ಯ ಅಪೇಕ್ಷಾ ಭವತಿ ಸಾ ಸಿದ್ಧಕ್ರಿಯಾ ಕೃದಂತೈಃ ಸಿದ್ಧಕ್ರಿಯಾ ಉಚ್ಯತೆ ಧಾತುನಾ ಉಕ್ತಃ ವ್ಯಾಪಾರಸ್ತು ಸಾಧ್ಯರೂಪಃ ವ್ಯಾಪಾರಃ ಏತದೇವ ಆದಾಯ ಅಸತ್ವಭೂತೋ ಭಾವಶ್ಚ ತಿಂಪದೈರಭಿಧೀಯತೆ ಇತಿ ವಾಕ್ಯಪದೀಯಂ ಇತಿ ದ್ರಷ್ಟವ್ಯಂ ಸರ್ವತ್ರ ವಾಕ್ಯಪದೀಯಸ್ಯ ಕಾರಿಕಾಃ ಪ್ರಮಾಣತ್ವೇನ ಉಪಸ್ಥಾಪ್ಯಂತೆ ವೈಯಾಕರಣೈಃ ಅತಃ ವಾಕ್ಯಪದೀಯೇ ಕಿಮುಚ್ಯತೆ ಅಸತ್ವಭೂತೋ ಭಾವಶ್ಚ ತಿಂಪದೈರಭಿಧೀಯತೆ ಅತ್ರ ತಿಂಗ್ ಪದೈಃ ಇತ್ಯಸ್ತಿ ಕಃ ಅರ್ಥಃ ಪದ್ಯತೆ ಅನೇನ ಅರ್ಥಃ ಇತಿ ವ್ಯುತ್ಪತ್ಯ ಪದಶಬ್ದಃ ಪ್ರತ್ಯಯಪರಃ ತಿಂಗಃ ಪದಾನಿ ತಿಂಗಃ ಪದಾನಿ ನಾಮ ಪ್ರತ್ಯಯಃ ಅತ್ರ ಪ್ರತ್ಯಯಃ ಇತಿ ಟಂಕಣದೋಷಃ ತಿಂಗಃ ಪ್ರತ್ಯಯಃ ಏಭ್ಯಃ ತೇ ತಿಂಗ್ ಪದಾಃ ಇತ್ಯನೇನ ಧಾತವಃ ಗೃಹ್ಯಂತೆ ಇವನ್ ದೋ ದ ಎಕ್ಲಿ ಸೇಸ್ ತಿಂಗ್ ಪದ ವಿಚ್ ವುಡ್ ಮೀನ್ ಅ ತಿಂಗ್ ಅಂತ ಬಟ್ ದ ಮೀನಿಂಗ್ ವಿಚ್ ಇಸ್ ಡಿಸೈರ್ಡ್ ಬೈ ವೈಯಾಕರಣಸ್ ಹಿಯರ್ ಇಸ್ ಅ ಧಾತು ಬಿಕಾಸ್ ಅಕಾರ್ಡಿಂಗ್ ಟು ವೈಯಾಕರಣಸ್ ಭಾವ ಆರ್ ವ್ಯಾಪಾರ ಈಸ್ ಎಕ್ಸ್ಪ್ರೆಸ್ಡ್ ಓನ್ಲಿ ಬೈ ದ ಧಾತು ನಾಟ್ ಬೈ ದ ಪ್ರತ್ಯಯ ನಾರ್ ಬೈ ದ ತಿಂಗ್ ಅಂತ ಅತಯೇವ ತಿಂಗ್ ಪದೈಃ ಇತ್ಯತ್ಯ ಏವಂ ವ್ಯಾಖ್ಯಾನಂ ಕ್ರಿಯತೆ ಓಕೆ ತಿಂಗಃ ಪದಾನಿ ನಾಮ ಪ್ರತ್ಯಯಃ ಏಭ್ಯಃ ವಿಧೀಯಂತೆ ತೇ ತಿಂಗ್ ಪದಃ ಇತಿ ಬಹುವ್ರೀಹಿಃ ತಿಂಗ್ ಪದ ಶಬ್ದೇನ ಅತ್ರ ಧಾತುಃ ಗೃಹ್ಯತೆ ಧಾತುಭಿಃ ಭಾವಃ ಅಭಿಧೀಯತೆ ಭಾವಃ ನಾಮ ವ್ಯಾಪಾರಃ ಕೀದೃಶಃ ವ್ಯಾಪಾರಃ ಅಸತ್ವಭೂತಃ ತಿಂಗ್ ಪದೈಃ ನಾಮ ಧಾತುಭಿಃ असत्त्वभूतः नाम साध्यरूपत्वं तदेव साध्यरूपवत् असत्त्वभूतम् इत्युक्तं साध्यरूपवान् भावः नाम व्यापारः अथवा क्रिया अभिधीयते इति वाक्यपदीयेऽपि उक्तमस्ति इति व्यापारस्य सामान्यं लक्षणं व्यापारः नाम कः भावनापरनाम भावनापरा भावनाभिधानः साध्यत्वेन अभिधीयमाना क्रिया सो एक्शन् विच् इस् एक्स्प्रेस्ड् एज् साध्यक्रिया इस् काल्ड् व्यापार दट् इस् अ क्रिया विच् डस् नाट् नेसेसिटेट् द रिक्वैर्मेण्ट् आफ् अनदर् क्रिया ओके सो दट् इस् व्यापार एण्ड् नौ इस् दिस् व्यापार वन् आर् मेनि यथा अस्माभिः पूर्वमपि दृष्टम् आश्रितक्रमरूपत्वात् सर्वत्र क्रियायाम् अवान्तरक्रियाः भवन्ति यथा पचति इति पच् इत्यत्र एका क्रिया किन्तु तत्र अवान्तरक्रियाः सन्ति फूत्कारः अधःसन्तापनं ज्वालनम् अधिश्रयणम् उदकसेचनम् इत्यादि बह्व्यः अवान्तरक्रियाः भवन्ति अयञ्च व्यापारः भूत्कारत्व अधःसन्तापनत्व यत्नत्वादि तत्तद्रूपेण वाच्यः अत्र प्रश्नः इदानीं धातुना व्यापारः उच्यते इति कथमुच्यते व्यापारत्वेन रूपेण उच्यते वा फुत्कारत्वादि रूपेण उच्यते वा यथा घटः इत्यस्ति घटः इति पदं तेन घटपदार्थः वाच्यः केन रूपेण वाच्यः घटत्वेन रूपेण वाच्यः इति उच्यते सो दिस् इस् आल् टर्मिनालजी विच् इस् कामन्ली यूस्ड् वेन् वि से द वर्ड् घट वि अण्डर्स्टाण्ड् पदार्थ घट as defined by the property of ghatatva. Okay. So, ghatatva is the shakyatavachedaka. Shakti is the expressing, the power of a word to express a meaning is called shakti. Okay. When we say ghatapadasya ghate shaktihi, it means the word ghata expresses the padartha called of pot. Okay. And this expression is through the property of ghatatva. Ghatatva is the property which is associated with whatever padartha expressed by the term ghata. The same ghata, when you are referring to it as, say, a padartha, okay, then padarthatvena rupena vachyaha bhavati natu ghatatvena rupena. You can think of the same thing in different ways. Say when you are thinking of a cow. When you say gauhu, tatra gotvena rupena gauhu uchyate. Okay, so you are identifying a cow with the property of gotva. But when you say, I am prani, this is an animal, tada pranitvena rupena gauhu uchyate. The gau is identified as an animal with the property of pranitva and not with the property of gotva. So when you say prani, the shakyatavachedaka is pranitva and not gotva. Okay, even though it is still a cow, you are identifying it with the property of pranitva and not with gotva. Okay. Similarly, you can refer to it by say a different term, say vyaktihi. You are saying it is just any padartha. Then padarthatvena rupena athava vyaktitvena rupena gauhu uchyate natu gotvena rupena. When you are identifying go as a padartha, you are attributing the property of padarthatva and not the property of gotva. So, when you are saying ghata, ghatatva rupena ghataha vachyaha. Idanim tu vyaparaha ityuchyate, dhatuna vyaparaha uchyate. Kena rupena uchyate? Vyaparatvena rupena uchyate iti vaktavyam. As a general property of vyaparatva, should be the identifier, but that is not the case here. You do not have a general property of vyaparatva. Ayancha vyaparaha, phutkaratva, adhasantapanatva, yatnatvadi, tattadrupena vachyaha. So the vyapara here is not identified as a general attribute of vyaparatva. Instead, each component kriya is expressed on its own. Okay. सो उदाहरणं घटपदेन घटः घटत्वरूपेण वाच्यः इत्यत्र घटत्वधर्मावच्छिन्नः घटः इति बोधः. क्वचिद्धातुना व्यापारस्तु व्यापारत्वेन रूपेण न भवति. यू आर् नाट् ऐडेण्टिफैयिङ्ग् व्यापार बै द कामन् प्रापर्टि आफ् व्यापारत्व अपि तु भूत्कारत्वादि तत्तद्रूपेण ईच् काम्पोनेण्ट् व्यापार ईस् ऐडेण्टिफैड् बै इट्स् ओन् प्रापर्टि से भूत्कारत्व अधसन्तापनत्व यत्नत्व एट्सेट्रा. अर्थात् बह्व्यः अवयवभूतक्रियाः धातुना उच्यन्ते इति दृष्टम्. क्रिया तु एका एव न, धातुना पचिधातुना उच्यमानः व्यापारः एकः न, बह्व्यः अवयवभूतक्रियाः उच्यन्ते. ताः सर्वाः अपि पृथक् पृथक्तया एव वाच्याः न तु समुदायरूपेण. यद्यपि पचति इत्यनेन एका क्रिया इत्युच्यते, तथापि सर्वेऽपि अवान्तरव्यापाराः तत्तद्रूपेणैव वाच्याः भवन्ति. यस् पचति इत्यादौ तत्तत्प्रकारकबोधस्य अनुभवसिद्धत्वात्, यतोहि सर्वे अपि अवान्तरक्रियाः पचति इत्यनेन गृह्यन्ते. यथा यदा कश्चित् चुल्लीं ज्वालयति तदापि पचति इति प्रयोगः भवति, यदि पात्रे तण्डुलं स्थापयति तदापि पचति इति प्रयोगः भवति. सा का क्रिया इति अस्माभिः ज्ञायते. वि डू ऐडेण्टिफै द क्रियाज़् इण्डिविजुवलि बट् रेफर् टु इट् एस् पचि पाकक्रिया. सो तत्तद्रूपेण वाच्यः. यस्मिन् समये यः व्यापारः वक्तृबुद्धिस्थः सः धातुवाच्यो भवति. सो इट् प्योर्ली डिपेण्ड्स् आन् विवक्षा. वक्तुः बुद्धौ यः व्यापारः यस्मिन् समये अस्ति सः धातुना उच्यते इति सिद्धान्तः. यथा पच् इति धातुः अस्ति, तत्र पच् धातोः प्रयोगः. यदा भूत्कारत्वेन रूपेण भूत्कारः वाच्यः. सो एट् सम् टैम्स् द वर्ड् पचति रेफर्स् टु जस्ट् लैटिङ्ग् आफ् द स्टफ्. भूत्कारः पुरातनकाले भूत्कारेणैव ज्वालनं भवति, इदानीं तु चुल्ल्याः ज्वालनम् इति. यदा तेन रूपेण भूत्कारः वाच्यते, भूत्काराश्रयः कर्ता, अत एव देवदत्तः पचति इति प्रयोगः. तत्र व्यापारः भूत्कारः, तस्य आश्रयः कर्ता, देवदत्तः पचति. अन्यव्यापाराः द अदर् एक्शन्स् विच् मे आल्सो बि इन्वाल्ड् इन् कुकिङ्ग् आर् नाट् एक्स्प्रेस्ड् बै द धातु नौ, अतः तदाश्रयाणां कर्तृत्वं न भवति. सो अदर् व्यापारस् फार् एक्साम्पल् द फैर् बर्निङ्ग्, बर्निङ्ग् आफ् फैर् इस् आल्सो एन् एक्शन् विच् हेल्प्स् इन् कुकिङ्ग् बट् दट् इस् नाट् एक्स्प्रेस्ड् बै द धातु. वेन् द यूसेज् इस् देवदत्तः पचति, भूत्कारत्वेन रूपेण यदा भूत्कारः उच्यते तदा तदाश्रयस्य कर्तृत्वम् अन्येषां करणत्वम्, अत एव देवदत्तः काष्ठैः पचति इति प्रयोगः. किन्तु यदा प्रज्वलनत्वरूपेण प्रज्वलनं वाच्यं, प्रज्वलनम् इति कश्चित् अवान्तरव्यापारः अस्ति, तस्य वक्तृविवक्षा यदा भवति, वेन् द स्पीकर् वाण्ट्स् टु कन्वे द पर्टिक्युलर् अवान्तरव्यापार आफ् प्रज्वलन बर्निङ्ग्, ओके, तदा प्रज्वलनाश्रयः कर्ता, सः देवदत्तः न. प्रज्वलनं देवदत्ते नास्ति. द बर्निङ्ग् काष्ठानि पचन्ति इत्यपि प्रयोगः अस्ति. द वुड् कुक्स् तत्र काष्ठानि पचन्ति इति प्रयोगः, तत्र काष्ठानां कर्तृत्वं कथं भवति? काष्ठगतः यः व्यापारः सः धातुना उच्यते इत्यर्थः. अत एव भूत्कारत्वादि तत्तद्रूपेण वाच्यः. विवक्षानुगुणं यं व्यापारं वक्ता उद्दिश्य पचिधातोः प्रयोगं करोति सः व्यापारः तेन धातुना उच्यते. सो वाट् इट् मीन्स् इस् द धातु पच् डस् नाट् कन्वे आल् व्यापारस् एस् अ समुदाय. इवन् दो द फैनल् बोध इस् दट् द इण्डिविजुवल् व्यापारस् द इण्डिविजुवल् काम्पोनेण्ट् एक्शन्स् are all conveyed by their individual identities when we use something like pachi. Okay. Nacha nanarthata pattihi. Evam chet, yadi vyaparaha भिन्नेन रूपेण भासते कदाचित् फुत्कारत्वेन रूपेण कदाचित् अधसंतापनत्वेन कदाचित् प्रज्वलनत्वेन तर्हि नानार्थः इति प्रयोगः यथा हरिः इति शब्दः तस्य कदाचित् विष्णुः इत्यर्थः भवति कदाचित् सिंहः इत्यर्थः कदाचित् कपिः इत्यर्थः भवति द सेम् वर्ड् कन्वेज् डिफरेंट मीनिङ्ग्स् वी काल् इट् अ नानार्थक शब्द सो ईस् पच् अ नानार्थक शब्द पच् इति नानार्थकत्वम् अस्ति वा न वा कदाचित् पूत्कारः उच्यते कदाचित् यत्नः उच्यते कदाचित् अधसन्तापनत्वम् इति चेत् नानार्थतापत्तिः इति चेत् न नानार्थकः न इवन् दो इट् एक्स्प्रेसेस् आल् द डिफरेण्ट् अवान्तरव्यापारास् इट् इस् नाट् नानार्थ वै अत्रापि पच् इत्यनेन भिन्नाः अवान्तरव्यापाराः उच्यन्ते तथापि अयं नानार्थकः शब्दः न किमर्थं तदादिन्यायेन बुद्धिविशेषादेः शक्यतावच्छेदकानाम् अनुगमकस्य सत्त्वात् तदादिन्यायः इति कश्चिन् न्यायः पचधातोः नानार्थकत्वम् अनुभवसिद्धं न वि डु नाट् इवन् दो वि यूस् पच् टु इण्डिकेट् द डिफरेण्ट् अवान्तरव्यापारस् इट् इस् नाट् नानार्थक इट् इस् कुकिङ्ग् देर् इस् स्टिल् वि अण्डर्स्टाण्ड् इट् एस् अ सिङ्गल् meaning and not as different meanings. Okay, why? He says, tadadi nyayaha, tad, yad, bhavat, ityadini sarvanamapadani santi. Yada saha ashvaha ityuchyate. Tada saha iti shabdena kim nyayate? Ashvaha nyayate. Ashvatvena rupena ashvaha tad shabda vachyaha. Yada saha ashvaha iti prayogaha, tada ashvatvena rupena ashvaha तच्छब्देन वाच्यः यदा तु सा नदी इति प्रयोगः क्रियते नदीत्वेन रूपेण नदी तच्छब्देन उच्यते तत्र सा इति तच्छब्दस्य कः अर्थः नदी इत्येव अर्थः नदीत्वेन रूपेण नदी उच्यते तच्छब्देन तत् फलम् इति प्रयोगे फलत्वेन रूपेण फलं तच्छब्देन वाच्यम् कापि पेस्ट् क्रियते चेदेवं भवति बुद्धिः उपयोक्तव्या फलत्वेन रूपेण फलं तच्छब्देन वाच्यं भवति एवं सर्वत्र यद्यपि तच्छब्दः समानः तथापि तत्तद्रूपेण सः सः पदार्थः तेन शब्देन बुध्यते कथं भवति तच्छब्दः नानार्थकः वा इस् तच्छब्द नानार्थक डस् इट् हाव् डिफरेण्ट् मीनिङ्ग्स् नो इट् डस् नाट् हाव् डिफरेण्ट् मीनिङ्ग्स् इट् एक्चुलि डस् नाट् हाव् अ सिङ्गल् मीनिङ्ग् आफ् इट्स् ओन् So the meaning which is conveyed by tad depends on the word with which it is associated. So yadyapi tachabdena bhinnanam padanam samabhivyahare bhinnaha arthaha uchyante tathapi tachabdaha nanarthakaha na tatra bhinnanam arthanam tattadrupena vachakatve api tachabdasya nanarthakatvam nasti. This is the same with all sarvanamas. When I say aham, so it could mean me or it could mean anybody who is speaking. Okay, tattadrupena tasam vyaktinam vachyatve api aham shabdasya nanarthakatvam nasti. Kuto nasti, tesham sarvesham arthanam anugamakaha avachedaka rupaha buddhi visheshaha. So there is something in the buddhi which identifies different things with the same shabda, with the same tachabda. Excuse me, just one moment. Sarvesham arthanam anugamakaha. So that which brings together all these meanings or that which follows anugachyati iti anugamakaha. That which follows or brings together all these meanings is a buddhi vishesha. Something which is the work of the buddhi. Even though the word tad by itself can refer to different things, there is the buddhi vishesha which identifies different things in different contexts by the same word. That is what we call the shakyatavachedaka. So the identifier there is a buddhi vishesha and not any particular meaning. Similarly, atrapi bhutkaratvadinam sarvesham arthanam anugamakasya buddhi visheshasya sattvat. Yatra yatra pachati athava pachidhatoho prayogaha kriyate tatra tatra kaha vyaparaha vivakshitaha iti buddhi visheshena jnayate. Okay, so there is a buddhi vishesha which identifies all these things with the same vyapara which is told by pachit. So even though bhutkaratvadinam tattadrupena vachyatve api buddhi visheshasya sattvat pachidhatoho nanarthakatvam nasti. Akhyate kriyaikatva vyavastha api avachedaka buddhi visheshyaikyam adayaiva. Akhyataha ityasti vastataha akhyata padasya bahushu artheshu prayogaha kriyate. Akhyataha ityukte kaha dhatuhu akhyata padena dhatuhu uchyate iti Bhattoji Dikshitasya Kaunda Bhattasya cha matam. Pratyayantam yatha tingantam va kridantam va akhyata padena uchyate iti Nageshaha. Tingantam eva akhyata padena uchyate iti Nyayavartikakaraha. Ting pratyaha eva uchyate iti Navyanayayikaha Mimamsakascha. So some people say akhyata refers to the dhatu. Some say it is to the pratyaya, ting pratyaya. Some say tinganta together, dhatu plus ting together is called akhyata. Some others say dhatu plus any pratyaya is called akhyata. So there are several ways in which they interpret and they use a different interpretation to support their own siddhantas. So atratu akhyata shabdena dhatuhu vivakshyate. Etohe akhyate kriyaikatva vyavastha. Kriyato akhyate artha dhatu evasti iti vayakarana siddhanta. Ataha atra akhyata padena dhatuhu vivakshitaha kaundabhattena. Akhyatena eka kriya pratyayate iti bhashya vachanamasti. Akhyatena dhatuna eka kriya pratyayate eka eva kriya uchyate. Yadi bhutkaratvadi avantara kriyaha bahvyaha tena tattadrupena uchyante. Tarhi kriyaikatva vyavastha akhyate eka kriya iti bhashyokta vyavastha katham iti cheta kriyaikatva vyavastha api avachedaka buddhi visheshaikyam. Akhyate nama dhatau kriyaikatva vyavastha kriyayam dhatunokta kriyayam ekatva vyavaharaha dhatuna eka kriya uchyate iti vyavaharaha katham avachedaka buddhi visheshaikyam. Avachedakaha yaha buddhi visheshaha bhutkaratvadinam shakyatavachedakanam bhutkaratvam adhasantapanatvam yatnatvam ityadi bahavaha shakyatavachedakaha santi. So there are different identifiers for each component kriya, but tesham sarvesham avachedakaha, identifying all of them together as one is buddhi vishesha, a particular buddhi. Tadgatam ekatvam sabuddhi visheshaha ekaha ityataha kriya eka ityuchyate. Even though it actually has several component particles, our buddhi construes them, brings them all together and portrays them as one ityeva artha. Anyatha bhutkaratvadinam nanatvena eka kriya iti bhashya vyavaharaha nopapadyate. Ataha eka kriya ityatra kriyayaha ekatvam na vivakshitam. It does not mean that there is only a single action. You can never say there is no single action. Whichever action you take, action by definition itself is multiple because there is a change which occurs with time. Okay, so there is no way you can identify a single action. Any action is always divisible into component actions. Ataha sarvatra eka kriya iti vyavaharaha buddhigatam aikyam adaya natu kriyagatam aikyam adaya. Uktam cha vakyapadiye gunabhutaihi avayavaihi samuhaha kramajanmanam buddhya prakalpita bhedaha kriyeti vyapadishyate. Vakyapadiye tritiya kande kriya What is it called? Kriya Paricheda. That section regarding Kriyas. Tatra Chaturthaha Shlokaha. Gunabhutaihi Avayavaihi Samuhaha. Kashchana Samuhaha Asti. Kidrishaha Samuhaha. Gunabhutaihi Avayavaihi. Gunabhutaha Nama Prakari Bhutaha Visheshani Bhutaha. The word guna in this case does not refer to quality. It refers to something which is secondary. Gaunam, upasarjanam, apradhanam ityarthaha. Apradhana bhutaihi, those which are not pradhana, subsidiary. Guna bhutaihi, avayavaihi. Prakari bhutaihi, prakari. Prakaraha is again avisheshana, which is not pradhana. Okay. So, apradhanaihi, avayavaihi. Putkaradhivihi, avantarakriyabhihi, upalakshitaha, samuhaha, sachakidrishaha, kramajanmanam, kramena, paurvapariyena janma nama utpattihi yesham. You should remember this samuha is not like, say, vrikshanam samuhaha. When you say vrikshanam samuhaha, we bring together all trees in the same place. So that is what we call a samuha. But in this samuha, you cannot bring together, say, putkaratva, adhishrayanatva, and adhasantapanatva. First you have to do putkara. First you light the stove, then you keep the vessel, then you add the water or you add the karma, and then you add the water. So you cannot bring them together at all. There is no point where they are all together. But still, you call them as a samuha. Krama janma naam. Paurvaparyena utpattihi yesham. Yadyapi yugapat ete sarve avantara vyaparaha na bhavanti. Kramashaha eva utpadyante. Tathapi samuhaha vyaparanam samudayaha buddhya prakalpitabhedaha. Buddhya nama sankalanatmaka buddhya. By the intellect which brings them together. Even though they are separated by time, it is the intellect which brings them together. Buddhya, tesham, sarvesham, prakalpita abhedaha. Prakalpitaha abhedaha, nama ekatvam. Yadyapi bahvyaha kriyaha santi, bhinneshu samayeshu pravartante, kramashaha eva utpattihi bhavati, tathapi etesham sarvesham, avantaravyaparanam, ekatva buddhihi, athava abhedaha iti jnanam, katham bhavati buddhya prakalpyate. Buddhya prakalpita abhedaha kriya iti vyapadishyate, vyavakhriyate. We refer to it as an action, but it is not one. It is always a samuha. A kriya is always a samuha. Kramajanmanam samuhaha. Kintu tatra avayavaha gunabhutaha apradhanaha. Ateva samuhasya pradhanyam. Tachya katham bhavati buddhya abhedaha prakalpyate. Eteshu sarveshu avayaveshu ekatva pratitihi buddhya kriyate. Tadrishasya samuhasya eva kriya iti nama iti vakyapadiyam. Okay. Kimuktam iti punaha pashyamaha. Etavata charchitasya bhagasya ayam saraha. Dhatuhu phalasya vyaparasya cha vachakaha. Atra phalashabdena viklityadi paribhashikam phalam vivakshitam. So the phala here refers to a paribhashika phala, which is defined as taddhatvartha visheshanatve sati, athava taddhatvartha prayojyatve sati, taddhatvartha janyatve sati, taddhatvarthatvam, tadeva viklityadi. So this is the technical definition of phala, and such a phala is expressed by dhatu. Dhatuhu phalasya vachakaha. Kidrishasya phalasya vachakaha. Etadrishasya phalasya vachakaha. Tattacha viklityadi phalam. Vyaparaha bhavana iti samanarthakam. Tattacha kim bhavati kaha vyaparaha. Sadhyatvena abhidhiyamana kriya. So the definition of vyapara is sadhyatvena abhidhiyamana kriya. Sadhyatvam namakim. Kriyantara akanksha anuttapakatvam sadhyatvam. That which does not generate the akanksha for another kriya is sadhya. So such kriya or action is expressed by the dhatu. Dhatuna sadhyatvena rupena kriya uchyate. Dhatu vachyaha vyaparaha. And now this vyapara is not one. Sahasarvada kramajanmanam बहूनाम अवांतर व्यापाराणाम समुदायः. सो दिस व्यापार विच इज एक्सप्रेस्ड बाय द धातु इज ऑलवेज अ कलेक्शन ऑफ कंपोनेंट एक्शंस. अवांतर व्यापाराणाम समुदायः बहूनाम अवांतर व्यापाराणाम समुदायः ते च क्रमजन्मनः. सो द अवांतर व्यापारास ऑलवेज हैपन सीक्वेंशियल. सो द व्यापार विच इज एक्सप्रेस्ड बाय द धातु इज always a collection of sequential intermediate or component actions. Avantara vyaparanam tattadrupena vachyatvam asti. You will be able to identify each avantara vyapara on its own. Putkaratvena rupena, adhasantapanatvena rupena, tathyatasya vyaparasyeva vachyatvam bhavati. Tathapi, etesham vyaparanam buddhya abhedaha prakalpyate. तस्यैव क्रिया इति व्यवहारः. सा च क्रिया एका. यद्यपि बहूनां समुदायः तथापि एका. सो इट इस परस्पर विरुद्धम्. इट इज इट डज हैव कॉम्पोनेंट्स. द कॉम्पोनेंट्स आर आइडेंटिफायबल इंडिविजुअली येट वी रेफर टू देम टुगेदर एज वन क्रिया एंड दैट क्रिया इज द वन विच इज एक्सप्रेस्ड बाय द धातु. एनी क्वेश्चंस? प्रश्नाः सन्ति वा? Always when you are studying a Shastra Grantha, the ultimate aim is to understand each word of the Pankti. Pankti Patha is the ideal. That is what is always done during Shastra Dhyana. It is not understanding, just the bhavartha. Okay, I mean, it is not understanding just the bhava. You have to be any Shastra Grantha. The ideal is you should be able to understand each word of the sentence and explain why that word is there. Okay, whether we are studying Laghu Kaumudi or Kaumudi or Bhushanasara, that is the ideal. But it is not perhaps possible at the first reading to do that. Okay. So why I do Pankti Patha is because of that. The ideal is we should be able to understand each word. But when you are studying a Grantha for the first time, it is not possible to understand each word. It is not possible, let me tell you. Don't worry. It is not possible to understand every pankti of a Shastra Grantha at the first hearing. Okay? It requires many avritti. Avritya eva panktishaha avagamanam siddhyati. Ata eva saraha. So for the first time, you should understand at least this much, what is given as sara. So we will go by each pankti. You should try to understand each pankti, but finally, at least the sara you should be able to grasp at the first time. It is only when you keep reading it again and again that you will understand how each pankti will relate to it. Okay, so you should not be discouraged by the fact that the panktis seem rather difficult to understand. At this stage, they will be. As long as you get the overall meaning, it is fine. But you should also not stop trying to understand the panktis, because that is where real shastrartha happens. Asatva bhutaha bhavaha. You have a question about that? Ashita?
Yes.
Yeah.
Namaste. Can you hear me?
Yes, I can hear you.
Yeah, this asatva bhuto bhavascha ting padairabhi diyate. I didn't get it.
So asatva bhutaha bhavaha. As I said, there is two things. One is sattva and asattva. So asattvam nama adravyam. So that is sadhyatvena abhidhiyamanam. That is what he said. Sadhya. Tadrupavatvam asatvabhutatvam. So asatvabhutatvam is sadhyarupatvam. So a kriya which is expressed as sadhya, That is without eliciting the akanksha for another kriya is asatva bhuta. Asatva bhutaha bhavaha. Nama sadhya rupena yaha bhavaha athava yaha vyaparaha sa eva kriya. So the vakyapadiya is just reiterating the fact that the dhatu expresses an asatva bhuta bhava, a vyapara which is in the form of asatva. Asatva means adravya, which in turn is synonymous with sadhya. So the vyapara which is expressed by the dhatu is such that it does not require another action for completion of its meaning. Kriyantara akanksha na bhavati dhatuna ukte vyapare ityartha. Any other questions? Okay. We will read the karikas before we close this class. Phanibhashita bhashyabdhehe shabdakaustubha udhrataha tatra nirnita evarthaha sankshepeneha kathyate फलव्यापारयोर्धातुः आश्रयेत तिङस्मृताः फले प्रधानं व्यापारः तिङर्थस्तु विशेषणं फलव्यापारयोस्तत्र फले तं यक्षिणादयः व्यापारे शप्ष्णमाद्यास्तु द्योतयन्त्याश्रयान् वयम् उत्सर्गोऽयं कर्मकर्तृविषयादौ विपर्ययात् तस्माद्यथोचितं ज्ञेयं द्योतकत्वं यथागमम् व्यापारो भावना सैवोत्पादना सैव च क्रिया कृण्यो कर्म कतापत्तेर्न हि यत्नोऽर्थ इष्यते किन्तूत्पादनमेवातः कर्मवत्स्याद्यगाद्यपि कर्मकर्तर्यन्यथा तु न भवेत्तदृशेरिव निर्वर्त्ये च विकार्ये च कर्मवद्भाव इष्यते न तु प्राप्ये कर्मणीति सिद्धान्तोऽत्र व्यवस्थितः तस्मात् करोतिर्धातोऽस्याद्व्याख्यानन्नत्वसौतिङाम् पक्ववान् कृतवान् पाकम् किं कृतम् पक्वमित्यपि किं कार्यम् पचनीयम् चेत्यादिदृष्टम् हि कृत्स्वपि किञ्च क्रियावाचकताम् विना धातुत्वमेव न सर्वनामाव्ययादीनाम् यावादीनाम् प्रसङ्गतः न हि तत्पाठमात्रेण युक्तमित्याकरे स्फुटम् धात्वर्थत्वम् क्रियात्वम् चेत् धातुत्वम् च क्रियार्थता अन्योन्यसंशयस्पष्टः तस्मादस्तु यथाकरम् अस्त्यादावपि धर्म्यंशे भाव्येऽस्त्येव हि भावना अन्यत्राशेषभावात्तु सा तथा न प्रकाशते फलव्यापारयोरेकनिष्ठतायामकर्मकः धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः आख्यातशब्दे भागाभ्याम् साध्यसाधनरूपता प्रकल्पिता यथा शास्त्रे स घन्यादिष्वपि क्रमः साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना सिद्धभावस्तु यस्तस्याः स घन्यानि निबन्धनः सम्बोधनान्तम् कृत्वोऽर्थाः कारकम् प्रथमोवतिः धातुसम्बन्धाधिकारनिष्पन्नमसमस्तनन्य तथा यस्य च भावेन षष्ठी चेत्युदितम् द्वयम् साधुत्वमष्टकस्यास्य क्रिययैवावधार्यताम् यदि पक्षेऽपि वत्यर्थः कारकञ्चनन्यादिषु अन्वेति त्यज्यताम् तर्हि चतुर्थ्या स्पृहि कल्पना अविग्रहागतादिस्था यथा ग्रामादिकर्मभिः क्रिया सम्बध्यते तद्वत्कृतपूर्व्यादिषु स्थिता कृत्वोऽर्थाः क्त्वा तु मुन्वत्स्युः इति चेत् सन्ति हि क्वचित् अतिप्रसङ्गो नोद्भाव्योऽभिधानस्य समाश्रयात् भेद्यभेदकसम्बन्धोपाधिभेदनिबन्धनम् साधुत्वम् तदभावेऽपि बोधो नेह निवार्यते श्रीलक्ष्मीरमणम् नौमि गौरीरमणरूपिणम् स्फोटरूपम् यतः सर्वम् जगदेतद्विवर्तते अग्रिमः वर्गः शुक्रवासरे सार्धत्रिवादने